मनमपि सचिव पुत्रमत्र स्वरूपम् स्वरूपम् तस्य व्रजवरिपुरीमा पुरीं गोस्तवाटिम् राधा कुण्डम् गिरिवरमहो राधिका माधवासम् प्राप्तो यस्य प्रकृतिकृपया श्रीगुरुम् मञ्चाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो महाबदन्नाय कृष्णप्रेम प्रदायते कृष्णाय कृष्णचैतन्य नाम्ने गौरत्विजे गुरवे गौरचन्द्राय राधिकायै तदाले कृष्णाय कृष्णभक्ताय तद्भक्ताय नमो यं प्रपृजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकाशलाय पुत्रेति तन्मयतया करोभिने तं सर्वभूतहृदयं तवैवास्मि तवैवास्मि न किमाहं त्वया इति विज्ञाने राधे तं न मां च
Ahem.